धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युत्सवा मामकाः पाण्डवाश्चैव किं कुर्वथ सञ्जय सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकम् व्यूढं दुर्योधन सदा आचार्यम् उपसंगम्य राजा वचनम् अब्रवी पश्यैतां पाण्डुपुत्राणां आचार्य महतीं समूहं व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता अत्र शूरा महेश्वाका भीमार्जुन समायुधि युयुधानो विराटश्च द्रुपदश्च महारथ धृष्टकेतुश्चेकितनः काशीराजश्च वीर्यवान् कुरुजीत् कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथा अस्माकं तु विशिष्टाय तान् निबोध द्विजोत्तमा नायका मम सैन्यस्य सज्ञातं तां ब्रवीमि ते भवान् भीष्मश्च कर्णश्च कृपश्च समितिं जय अश्वत्थामा विकर्णश्च सौमदति तथैव च अन्ये च बहव शूरा मदर्थे त्यक्तजीविताः नाना शस्त्रप्रहरणाः सर्वे युद्धविशारदा अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं चिदमेतेषां बलं भीमाभिरक्षितम् अनेषु च सर्वेषु यथा भागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि तस्य सञ्जनयन् हर्षं कुरुवृद्धा पितामह सिंहनादं विनोद्य चै शङ्खं दद्मौ कृतापवाम ततः शङ्खाश्च भैर्यश्च पणवानक गोमुखा सहसैवाभ्य अन्यन्त सशब्दस्तु मुलो ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ माधव पांडवश्चैव दिव्यौ शंखौ प्रदद्मतु। पांचजन्यं ऋषिकेशो देवदत्तं धनंजय पौंड्रं दद्मौ महाशंकं भीमकर्मा वृकोदरः। अनंतविजयं राजा कुंतीपुत्रो युधिष्ठिरः नकुलः सहदेवश्च सुघोष मणिपुष्पकौ। पार्श्वश्च परमेश्वा च शिखण्डी च महारथ दृष्टद्युम्नो विराटश्च सात्यकिश्च पराजितः। द्रुपदो द्रौपदेयाश्च सर्वशः पृथ्वीपते सौभद्रश्च महाबाहो शंकान दद्मो पृथक् पृथक्। सघोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् नभश्च पृथ्वीं चैव तुमलो भिन्नादयन्। अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डव। ऋषिकेशं तदा वाक्यम् इदम् आह महीपते। अर्जुन उवाच शेनयोर् उभयोर्मध्ये रथं स्थापय मे अच्युत यावदितान् निरीक्षेऽहं योद्धुकामान् अवस्थितान् कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे। योत्स्यमानान् वेक्षेऽहं य एतैत्र समागताः धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रिय चिकीर्षव। संजय उवाच एवमुक्तो ऋषिकेशो गुडाकेशेन भारत सेनयोर् उभयोर्मध्ये स्थापयित्वा रथोत्तमम्। भीष्मद्रोण प्रमुखतः सर्वेषां च महेक्षिताम् उवाच पार्थ पश्येतान् समवेतान् कुरुन् इति। तत्रापश्यति तान् पार्थः पितृनथ पिता महान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखैस्तथा श्वशुरान् सुहृदश्चैव सेनयो रुभयोरपि तान् समीक्ष्य स कौन्तेय सर्वान् बन्धून्वस्थितान् कृपया परयाविष्टो विशिदन्निदमब्रवीत्। अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितं सिदन्ति मम गात्राणि मुखं च परिशुष्यति वेपतुश्च शरीरे मे रोमहर्षश्च जायते गांडीवम संस्रुते हस्ताप त्वच्चैव परिदह्यते गांडीवम संस्रुते हस्ताप त्वच्चैव परिदह्यते न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयोनु पश्यामि अत्वा स्वजनमाहवे न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च किन्नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ईशामर्थे कांक्षितं नु राज्यं भोगाः सुखानि च तैमेव स्थिता युद्धे प्राणौस्त्यक्त्वा धनानि च आचार्यः पितरः पुत्राः तथैव च पितामहः मातुलाः श्वशुराः पौत्राः शालाः सम्बन्धिनस्तथा एतान्नहन्तुमिच्छामि घ्नतोऽपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतोः किन्नु मयि कृते निहत्य धार्तराष्ट्रान्न का प्रीति स्वाजनार्दनः पापमिवाश्रयेदस्मान् अत्वैताना ततायिनः तस्मान्नारा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् स्वजनं हि कथमत्वा सुखिनः स्याम माधव यद्यप्येतेन पश्यन्ति लोभोपहतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् कथं न ज्ञेयमस्माभिः पापाद् अस्मान् निवर्तितुं कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः धर्मे नष्टे कुलं कृष्णमधर्मो विभवत्युत अधर्मः विभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः स्त्रीषु दुष्टाशु वार्ष्णेय जायते वर्णसंकरः संकरो नरकायैव कुलघ्नानां कुलस्य च पतन्ति पितरो हेषां लुप्तपिण्डोदकक्रियाः दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः साध्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासो भवतीत्यनुशुश्रम अहोबत् महत्पापं कर्तुं व्यवसिता वयं यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः यदि माम प्रतिकारम् अशस्त्रं शस्त्रपाणय धातराष्ट्रारणि हन्यस् तन्मे क्षेमतरं भवेत् सञ्जय उवाच एवमुक्त्वा अर्जुनः शङ्के रथोपस्थोपाविशत् विसृज्य सशरं चापं शोकसंविघ्नमानसः हरे कृष्ण 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 हरे 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 राम राम राम